विशुद्ध विज्ञानम् अगाध सौख्यम् विश्वस्य बीजम् करुणापयोधि अनाद्यनन्तम् प्रकृते परस्ता तत्त्वमेकं भुवि रामकृष्णः न नेति भीत्या श्रुतयो वदन्ति वदन्ति साक्षा न च यं कदाचित् चिदेकरूपः शिव ईश्वराणाम् महेश्वरोऽसौ भुवि रामकृष्णः यं नित्यमानन्दम् अनन्तम् तमेकं शिवेति नाम्ना श्रुतयो गृणन्ति तस्यावतारो नररूपधारी कृपासुधा रामकृष्णः विज्ञानपीयूष निमग्नमूर्ति पस्पर्शयान्या दयया करेण ते कामिनी काञ्च नरिक्तचित्ता सद्यो बभूव भुवि रामकृष्णः प्रेमाब्धिगम् आन्दोलितोयो भगवद्विलीनः भक्तिर्विशुद्धा स्वयमाविरासे पुंविग्रहो रामकृष्णः तमद्भुतं कञ्चि अचिन्त्यशक्ति वन्दे प्रशान्तं परिपूर्णबोधं ज्ञानस्य भक्तेश्च विशुद्धमूर्ति विमूर्तिमेकं भुवि रामकृष्णं विमूर्तिमेकं भुवि रामकृष्णं तत्तत्त्वमेकं विराम